Have you ever wondered why a particular mantra has to be chanted at a specific time of the day? Or why do we pray to a god or goddess on a given day of the week? Chants of India will help you in understanding the meaning and the significance of selected chants from Vedic times.
Today is Shravana Nakshatram and it belongs to Sriman Narayana, the all-pervading Mahavishnu. And also, today is Sunday. Presenting herewith for you, in prayer of Lord Vishnu, Purusha Suktam, followed by Mahasauram, which is in prayer of Lord Aditya.
Om Sahasra Shirsha Purusha Sahasra Aksha Sahasra Pada Sabhumim Vishvato Vratvatyishthat Dashangulam Purusha evedam sarvam yad bhutam yancha bhavyam Uta mratatvashyesha no yadanne nati rohati Etavanasya mahimato jaya angshcha purusha Pado asya vishva bhutani tripadasya mratandivi Tripadodhva udait purusha pado seha abhavat punah Tato vishvangya kramat shashana nashane abhi Tasmad virala jayata virajo adhi purusha Sajato atyarichyata paschad bhumi matho purah Yat purushena havisha deva yajna matanvata vasanto asya sita chyang greshma idmasharadhavihi tam yajnam parihishi prakshanna purushan jatamagratah tena deva ayajanta sadhyarshayaschaye Tasmādhyajñāt sarva utas samratam prushadājyam Pashuntāṁś chakre vāyavyāna ranyān grāmyāśca ye Tasmādhyajñāt sarva utarachas samāni jaghire Chandamsi jaghire tasmadhya justasmad ajayata tasmadashva ajayanta yekecho bhayadatah gavo jaghire tasmad tasmajata ajavayah yat purusham yadadu kadidha vyakalpayanna Mukhaṁ kima asya kaubhāvu kāvuru pādā ucchete Brahmano asya mukhaṁ asīt bhāhura janyakṛtah Uru tada asya yatvaiśya padabhyāṁ śudhra ajāyata Chandrama manaso jātas chakṣo sūnyo ajāyata Mukhadindrashchaknishcha pranadvayurajayata Nabhya asidantariksham sheshno dhyau samavattata Padabhyam bhumiddishashrotratatha alokang akalpayan Saptasya asanparidayastre saptasamidha krutah Deva yadhyajyantanvana abadhanan purusham pasham Yajyenama yajanta devastani dharmani prathamanyasan Te anakamam mahimana sachanta yatra purve sadhya santi devah Om
Now, some select mantras from Mahasauram, which is Surya Namaskaram.
ॐ उदन्त्यग्जातवेदसन्देवं वहन्ति केतवः दृशे विश्वाय सूर्यम् अपत्येताय वो यथा नक्षत्रायन्त्युक्तिभिः सूराय विश्वचक्षसे अदृश्रमस्य केतवो वीरश्मयो जनाङ्गनो भ्राजन्तो अग्नयो यथा तरणेन्विश्वदश ज्योतिष्कृदसि सूर्य विश्वमाभासिरोचनम् प्रत्यङ्गदेवानां विषः प्रत्यङ्गुदेशि मानुषान् प्रत्यङ्गविश्वं स्वदृशे येनापावकचक्षसा भुरन्यन्त्यग्जनाङ्गनो त्वं वरुण पश्यसि विद्या मेषि रजस्प्रतभामिमानो अक्तुभिः पश्यञ्जन्मानि सूर्य सप्तत्वा हरितो रथे वहन्ति देवसूर्य शोचिष्केशं विचक्षण अयुक्त सप्त शुन्ध्यो वसूरो रथस्य नप्त्यः ताभेर्याते स्वयोक्तिभिः ओद्वयन्तमसस्पिरज्योतिष्पश्यन्त उत्तरम् देवं देवत्र सूर्यमगन्मज्ज्योतिरोत्तमम् उद्धन्नद्य मित्रमः आरोहन्नुत्तरान् दिवम् हृद्रोगं मम सूर्य हरिमाणं च नाशय शुकेषु मे हरिमाणं रोपणकासु दध्मसि अथो हारिद्रवेषु मे हरिमाणन्निदध्मसि उदगादयमादित्यो विश्वेन सहसामः द्विषन्तं मह्यं रन्धयन्मो अहं द्विषते रथम् चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः आप्राध्या वा पृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तुषश्च सूर्यो देवी मुषशं रोचमानं मद्यो न योषामभ्योति पश्चात् यत्र नरो देवयन्तो युगानि वितन्वते प्रतिभद्राय भद्रम् भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनोमाध्यासः नमस्यन्तो दिव आपृष्टमस्तु परिध्या वा पृथिवीय अन्ति सद्यः तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विदधं सञ्जभार यदेदयुक्त हरितः सदस्तादात्रात्रिवासस्तनुते शिवस्मै तन्मित्रस्य वरुणस्य विचक्षे सूर्यो रूपं कृणुतेभ्यो रूपस्थे अनन्तमन्यत्रोषधस्य वाजः कृष्णमन्यद्धारितः समभरन्ति आध्यादेव उदिता सूर्यस्य निरम्भसः पिप्रता निरवध्यात् तन्नो मित्रो वरुणो माम अन्तमदित सिन्धोः पृथिवी उतद्भ्यौः सूर्यो नो दिवस्पातु पातो अन्तरिक्षात् अग्निर्नः पार्थिवेभ्यः जोषा सवितन्यस्य ते हरशतं समाङ्गर्हति पाहि नो दिद्युतः पतन्त्याः चक्षुर्नो देवः सविता चक्षुर्न उत पद्वतः चक्षुर्धाता दधानुनः चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यैतनोभ्यः सञ्चेदं विच पश्येम सुसन्दृशन्त्वा वयं प्रति पश्येम सूर्य पश्येम नृचक्षसः बिभ्राड्बृहत् पिबतु सौम्यं मद्भायद्दत् यज्ञपाता विक्रोतम् वात जूतो यो अभिरक्षितत्मना प्रजाः बुभोष पुरुधा विराजति बिभ्राड्बृहत् सुभृतं वाजसातमं धर्मं दिवो धरोणे सत्यमर्पितम् अमित्रः वृत्रः दस्यो हन्तमं ज्योतिर्जघ्ये असुर आसपतनः इदं श्रेष्ठं ज्योतिषां ज्योतिरोत्तं विश्वजिद्धन जिदोच्यते बृहत् विश्वभ्राड्भ्राजो मयी सूर्यो दृश उरोपाप्रते सह ओजो अच्युतम् बिभ्राञ्ज्योतिषाश्व अरगच्छो रोचनं दिवः येनेमा विश्वा भुवनान या भ्रता विश्वकर्मणा विश्वदेव्यावत् आयन्दौः प्रश्निरक्रमे दशनन्मातरं पुरः पितरञ्च प्रयन्स्वः अन्तश्च रतिरोचनास्य प्राणादपानति व्यख्यन्महिषो दिवम् त्रिंशाच्छद्धां विराजति वाक्पतङ्गाय धीयते प्रतिवस्तोराद्युभिः व्रतं च सत्यं च चाभिद्धात्तपसोऽध्यजायत ततो रात्र्यजायत ततः समुद्रो अर्णवः समुद्रादर्णपादधि संवत्सरो अजायत अहोरात्राणि विदद्विश्वस्य निषदो वशी सूर्या चन्द्रमसौ धाता यथा पूर्वं कल्पयत दिवं च पृथिवीं चान्तरिक्षमथोस्वः सविता पश्चात्तात् सविता पुरस्तात्तात् सविता तारात्तात् सविता धारात्तात् सविता नः सवतु सर्वतातिं सविता नोरासतां दीर्घमायोः ॐ